अथ द्वादशस्तोत्रे चतुर्थोऽध्यायः निजपूर्णसुखामितबोधतनुः परशक्तिरनन्तगुणः परमः अजरामरणः सकलार्तिहरः कमलापतिरीड्यतमोऽवतु नः यदसुप्तिगतोऽपि हरिः सुखवान् सुखरूपिणमाहुरतो निगमाः स्वमतिप्रभवं जगदस्य यतः परबोधतनुं च ततः खपतिम् बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् स्मरणे हि परेशितुरस्य विभोः मलिनानि मनांसि कुतः करणम् विमलं हि पदं परमं स्वरतम् तरुणार्कसवर्णमजस्य हरेः विमलैश्रुतिषाणनिशाततमैः सुमनोऽसिभिराशु निहत्य दृढम् बलिनं निजवैरिणमात्मतमोऽभिधमीशमनन्तमुपास्वहरिम् स हि विश्वसृजो विभुशम्भुपुरन्दरसूर्यमुखानपरानमरान् सृजतीड्यतमोऽवति हन्ति निजम् पदमापयति प्रणतान् सुधिया परमोऽपि रमेशितुरस्य समो न हि कश्चिदभून्न भविष्यति च क्वचिदद्यतनोऽपि न पूर्णसदा गणितेड्यगुणानुभवैकतनोः इति देववरस्य हरेस्तवनम् कृतवान्मुनिरुत्तममादरतः सुखतीर्थपदाभिहितः पठतः तदिदं भवति ध्रुवमुच्च सुखम् इति द्वादशस्तोत्रे चतुर्थोऽध्यायः।